ஓம் சிவாய நம. டியர் லிசனர்ஸ் ஆஃப் சைவம் டாட் ஆர்க், தி நெக்ஸ்ட் ப்ரோக்ராம் இஸ் புராண பாராயணம். இன் திஸ் யூர் அபவுட் டு லிசன் சுந்தரமூர்த்தி சரிதம். தேங்க்யூ. ஓம் சிவாய நம.
சுந்தரமூர்த்தி சரித வர்ணனம் உபமன்யு பக்த விலாசம் பூர்வபாகம் சாப்டர் 17 வர்சஸ் 22-26 அண்ட் பிரம்ம கைவர்த்த மகாபுராணம் உத்தரபாகம் சிவக்ஷேத்திர பிரசம்சயம் தட்சிண காளியபுர மகாத்மியம் சுந்தரமூர்த்தி சரித வர்ணனம் 141 வர்சஸ். கோட் ஃப்ரம் டே பை டே வித் பகவான் பை தேவராஜ முதலியார். 4th February 1946. Last night Bhagavan read in Tiruchudi's Thalapuranam that God appeared as Kalayar before Sundaramurthy at Tiruchudi and asked him to come to Kanaperur. This afternoon again he was reading the book. He read out some portions to us and particularly the Sundaramurthy Patalam. 5th February 1946. Bhagavan has been reading the Kalayar Koyil Puranam and explaining to us various portions therein, both in the morning and in the afternoon. He was so absorbed in the songs and the story that he went on explaining to us this morning. Bhagavan was explaining to us how the poet was showing his skill and how a single stanza must have cost the poet several days of anxious thought. Letters from Sri Ramanashramam, 26th January 1946. Yesterday, Bhagavan, while going through Tiruchudi Puranam, spoke regarding the events connected with the visit of Sundaramurthy to this holy place. He acquired the friendship of the Kerala King Cheraman and they both went to Madurai on pilgrimage. In Tiruchudi, they had the darshan of Lord Bhuminatha and offered worship with the song beginning, Oonai Uyir Puhalai. They decided to stay in that holy place for a while and so resided in a mutt on the bank of the river Kaundinya. One night during the Sundaramurthy Nayanar's stay there, Lord Shiva appeared to him in a dream with a ball in his hand. Ball is the symbol of kingship and a crown on his head as a youth of incomparable beauty and with a smile dancing on his lips. Said, we stay in Jyotivana, that is Kalipuram. On hearing these words, Sundaramurthy Nayanar woke up with excitement and recollected the glorious kindness of the Lord who appeared and showered benevolence on him and narrated the wonderful vision to the Chera king with joy. There and then he sang, overwhelmed with devotion, the Devara Padigam, commencing with the verse, Tondal Adithoyalum on Lord Kalishwara. Bhagavan copied later the related portions mentioned above, which are presented. Photo descriptions of page number 314. Kalayar Koyil, that is Kanaper temple towers built by Marudu Pandyas. Number 2. Gajapushkarani, that is the temple tank at Kalayar Koyil temple. These two temple towers of Kanaper was built just a few hundred years back by two local chieftains, the Marudu Pandyas. As they were sought by the British rulers for their known freedom fight movement, at a time they had to hide in the nearby forest. However, a news was sent to them that if they failed to surrender, the temple towers built by them would be demolished. As they felt that the saving of the temple tower is their prime duty, they both voluntarily surrendered to the British government and were hanged. The saved two towers of the temple is announcing their supreme sacrifice even today, which are seen in page number 314 in this compilation. The other photo is a big temple tank, Gajapushkarani, of which mention is made in the story of Sundaramurthy Nayanar in the previous pages in Sanskrit.
Atha Sri Upamanyu Bhakta Vilase Purva Bhage Sri Sundara Charite Sattadasodhyayah 22. Tato Rameshwaram Natva Cherena Saha Sundara अन्यानि धामन्यभ्यर्च्य आवर्तनगरीं ययौ 23 तत्र श्रीमेरुधन्वानम् गर्भावास विमोचकम् आलाहालम् गलम् देवम् नूनावान्नम्य सुन्दर 24 तत्रावर्तपुरे सौम्ये निद्रामुद्रितलोचने आविरासीत् सचूलिक चण्डायुध करोहरः 25 दर्शयित्वा निजामूर्तिम् दिव्याम् सदारुणकृतिम् कानप्पेराख्यदामाहम् इत्युक्त्वा ईशतिरोधदे 26 ततः प्रबुद्ध सौम्येषु विचिन्त्य स्वप्नवीक्षिताम् श्रीमूर्तिम् प्रोच्य चीराय प्राहाहो करुणेत्यतः 27 नत्वा आवर्तपुरेशानम् चेरेण सह सुन्दरः स्थानम् यूनो महेशस्य कानप्पेरपुरीम् ययौ ब्रह्मवैवर्ते महापुराणे उत्तरभागे शिवक्षेत्रप्रशंसायाम् दक्षिणकालीपुरमहात्म्ये सुन्दरमूर्तिचरितवर्णनम् सुमन्तु देववर्म नृपश्रेष्ठ कालीश्वर कथाम् मया प्रोच्यमानाम् भवान् श्रुत्वा न तृप्तिम् लभते द्भुताम् धन्योऽसि त्वम् अहम् चापि धन्योऽस्मीश्वर भावना ये जगत्सु प्रदर्श्यन्ते शिवभक्ता नरापरम् ब्राह्मणा वा क्षत्रिया वा वैश्याः वा वृषलाश्च वा ऋषयो वा अथ मुनयो वर्णसाङ्कर्यजाश्च वा शिवभक्तिम् प्रकुर्वन्ति एवाके वा नरा भुवि कालीश्वरो हि तद्वश्य तेषु एह विहर्यसौ शिवो भक्त पराधीन स्वर्णवल्लीश्वरो विभु न तीर्नुति स्मृतिर्वापि कीर्तनम् वापि यस्वयम् कार्यते शिवभक्तैश्वैः भस्म रुद्राक्षरधारिभिः आत्मानैमेव कालीश समुद्दिश्य स्वयम् विभु स्वर्णवल्ल्या समेत सङ्ग गत्वा कालीश्वरात् पुरा सुन्दर शिवभक्तानाम् अग्रगण्यम् द्विजोत्तमम् स्तोत्रम् हि कारयामास भक्तवाक्येषु कौतुकी पिता स्वकीय बालानाम् वाक्यम् श्रोतुमना इव सः कालीश्वरो देव स्वर्णवल्ल्या सह प्रभु कालीपुरात् विनिर्गर्त्य भक्तरक्षण तत्पर 10-20 बिल्वारण्यम् समभेत्य शापाशिलिचिमीकृतान् अनेकरुद्रान् सन्त्रातुम् गतश्चाद्यापि तत्र वै बिल्वारण्ये निवसति स्वर्णवल्ल्या दयानिधि तदपि प्रोक्तमैवेत रुद्रशापविमोक्षणम् अन्यच्च श्रूयताम् राजन् प्रणतार्ति हरोहर कालीश्वर कालीपुरा प्रस्थायेन्द्रपुरम् पुरा स्वर्णवल्ल्या महादेव्या साकम् आसाद्य तत्र च स्वभक्तरक्षणम् कृत्वा सन्निधत्ते अधुनाप्यहो एवम् विचित्रचरितो ज्योतिर्वनविहार्यपि तत्र तत्र च कालीश प्रसादकुरुते नृपः देववर्मा सुमन्तो योगिनाम् श्रेष्ठ सर्वज्ञ करुणानिधे कालीश्वराद्भुतकथा बोधनैकविशारद ब्रूहि माम् विस्तरणेद कौतूहलसमन्वितम् कोऽयम् त्वया निगदितम् सुन्दरः पृथ्वीसुर कुत्रत्य कस्य तनयः कुत्र कालीश्वरस्य त स्वर्णवल्ल्या महादेव्या सह गत्वा कथम् द्विजम् स्वतोत्रम् कारयामास तत्सर्वम् ऋषिसप्तम श्रूयतम् पृथ्वीपाल कालीश्वर कथा त्वया यत्कथा श्रवणोद्भ प्रसीदेत् कालिकेश्वर अस्ति श्रीपुरमित्येकम् शिवक्षेत्रम् विचित्रदम् चोलदेश परिष्कार कारणम् पावनम् महत् यत्र चन्द्रकला चूड त्यागराजो विराजते तत्र कश्चित् द्विजश्रेष्ठ सर्वशास्त्रार्थपारगः आसीत् वेदान्तनिरत त्यागराजेति भक्तिमान् तस्माज्जग्ने द्विजश्रेष्ठ सुन्दराख्यो गुणाज्वलः योजातु निर्मलादर्शे प्रतिबिम्बो युवेशितु स एवायं सुन्दरो भू सौन्दर्यादुत गुणतस्तत शीलत शिवभक्त्या च शिवस्य गुणवर्णना शिवमाहात्म्य विज्ञानात् शिवक्षेत्राटनात् तथा शिवभक्तैः संसर्गात् शिवैकत्व विभावनात् शिवस्तुतिरतत्वाच्च सुन्दर सुन्दरोद्धनि भक्तचित्तानुवर्तीश त्यागराजो जगत्प्रभु यस्य वाराङ्गना भोग चिकीर्षोः दैत्यमातनो तस्य माहात्म्यमाख्यातुम् सुन्दरस्य शिवाकृते को वा समर्थो भवति तादृशो एष सुन्दरः स कदाचित् शिवक्षेत्रम् सर्वभूतल संस्थितम् गमिष्यामि प्रणश्यामि स्तोष्यामि च तदीश्वरान् इति निश्चित्य बहुभिः शिवभक्तै शिवोपमै जटारुद्राक्ष भस्माढ्यै शोभमानै सहातुल ततस्ते स शिवकथा वर्णनो दृष्टदिक्तटः तत्र तत्र शिवक्षेत्रम् जगामाद्यन्तपावनम् बहूनाम् शिवभक्तानाम् मध्ये राजति सुन्दरः 31-40 नक्षत्रमण्डलसच्च चन्द्रमण्डलवत् परम् तत्र तीर्थे च विधिवत् स्नात्वा शम्भुम् प्रणम्य च स्तोत्रम् द्राविडवृत्तानाम् दशकेन विधाय च गत्वा प्रतिशिवक्षेत्रम् एवमेव चकारस शिवक्षेत्रेषु गमनम् तीर्थेषु स्नानकर्म च दर्शनम् शिवलिङ्गानाम् नमनम् नवनम् तथा दशकेन च वृत्तानाम् कुर्वन् द्राविडभाषया क्रमेण क्रममाणौसौ शिवक्षेत्राणि सुन्दर जगाम च शिवक्षेत्रम् श्रीमद् आवर्तनामकम् नाम्ना सहायवल्यात्तु सह देव्या महेश्वर सन्निधत्ते सदा यत्र शिवश्रीतनुनायकः तीरकौण्डिन्यनद्यास्तु दक्षिणे सुमनोहरे अनघैः शिवभक्तानाम् सहोवास सुन्दरः प्रपूज्यमान तत्रत्यै शैवे शैवाग्रणीर्द्विजः तस्मिन् स्नात्वा महातीर्थे नृत्यकृत्यानि चाकरोत् तत्र श्रीसङ्गसंयुक्त श्रीतनुम् परमेश्वरम् सहायवल्लीम् अम्बा च दृष्ट्वा नत्वा पुनः पुनः अगायत् वृत्तदशक स्तोत्रेण श्रीतनुम् शिवम् ततः ससङ्गसङ्गाथ सुन्दर श्रीतनुम् विभुम् शयनाख्यम् मठम् प्राप शैवायत्र तु शेरते श्लोक 41-42 सुखसुप्तम् मठे तस्मिन् सुन्दरम् शैववल्लभम् कौण्डिन्यसरिताकूले उत्तरे शिष्यसंवृते स्वप्ने समाजरामेश प्रभुः कालेश्वरोहर रुक्मप्रसूनगुच्छाग्र स्वर्णवेत्रलसत्करः
43
हेमपद्मस्रगाबद्ध कुञ्चिकोद्भासि मस्तकः माणिक्यपादुकारूढ पादपङ्केरुहद्वय वयसा यौवनेनाप्लम् भ्राजमानेन तेजसा शोभमान प्रफुल्लाब्ज विकासी मुखमण्डल यद्रूपम् शक्यते द्रष्टुम् न केनापि जगत्स्वपि तादृशम् रूपमास्ताय स्वर्णवल्ली मनोहर लोकोत्तरयुवानन्तम् सर्वावयव सुन्दरम् सुन्दरश्च समालोक्य स्वप्ने पप्रच्छतम् द्विजः तस्त्वम् कुतस्य केनात्र हेतुनाम् उपागतः वक्तव्यम् मम तत्कुर्याम् सर्वलोकैकसुन्दर इति स्वप्ने सपृष्ट ससुन्दरम् गिरम् अब्रवीत् तिरुचुळि शयनम् पल्लिमडम् इत ईशान दिग्भागे व्यतिते योजनत्रये अस्थिर्ज्योतिवनम् नाम शिवक्षेत्रम् अनुत्तमम् तत्र वासीति माम् विद्धि तवैवान्तिकमागतः एवम् सर्वम् शिवक्षेत्रम् तदीश्वरदर्शनम् करोषि तान् गायसि त्वम् वृत्तानाम् दशकेन च अतस्त्वम् शिवभक्तेन्द्र सम्यग् गायस्व मामपि इति स्वप्नेऽद्भुतम् दृष्ट्वा प्रबोध्यत स सुन्दरः तत उत्थाय वेगेन सम्भ्रमाविष्ट मानसः प्रक्षाल्य पादौ च आचम्य भस्मोद्रुलित विग्रहः सुन्दरः चिन्तयामास स्वप्ने द्रष्टोऽद्य को मया इति ध्यात्वाथ निश्चित्य कालीश सम्भवेत् इति जगौ द्राविड वृत्तानाम् दशकेन तदैव सह कालीश्वरम् युवेशानम् सुन्दरम् लोकसुन्दरम्। ब्रह्म वैवर्त महापुराणे लक्ष्या काली महात्म्य सुन्दरमूर्ति चरित वर्णनम् श्लोक 55-66। ततः प्रातः समुत्थाय श्रीसङ्गैः सह सुन्दर गन्तुम् वृद्धपुरक्षेत्रम् यदरेश्म सदा नृपः शिवक्षेत्रोत्तमवर वासि कालेश्वरो विभु गन्तुम् ज्योतिर्वनम् स्वान्ते ध्यात्वा वै सुन्दरे स्थिते षोडशाब्दकृती भूत्वा दिव्यलावण्यशेवधि तरुण्याद्भुतरूपिण्य स्वर्णवल्यान्वित पुर प्रादुर्बभुव तम् दृष्ट्वा सुन्दरो विस्मितो भवत् कस्त्वम् केयम् किमर्थम् माम् इहायातौ युवामिति पृच्छन्तम् सुन्दरम् तन्तु बभाषे मञ्जुभाषणः सर्वम् ते कथयिष्यामि महत्यद्य क्षुधावयोः प्रथमम् भोजयानन्नौ सर्वम् वक्ष्यामि अनन्तरम् इति ऊचिवान् सोऽप्येनम् तथैवासु इति सुन्दरः अस्मिन् बिल्ववनेऽत्यन्त्यम् निर्मले तीर्थवारिणि स्नात्वा नित्यानि कर्माणि निर्वर्त्यार्चाम् शिवस्य च भोक्तुम् आगच्छतम् शीघ्रम् युवाम् वृषबुभूक्षितौ इत्युक्तौ सुन्दरेणेतौ बिल्वारण्यम् प्रजग्मतु ततश्च सुन्दरोऽप्याशु प्रेषयामास भक्तिमान् आराळकान् समाहूय कुरुद्वम् पाकमुत्तमम् लेह्यम् चोष्यम् च पेयम् च खाद्यम् चापि चतुर्विधम् भक्ष्यम् च कुरुत क्षिप्रम् शाल्यन् अन्नद्रुतम् शर्करा फलानि अपि च स्वादूनि समृद्धानि दधीनि च प्रकल्पयत मृष्टानि गुणवन्ति गुणाक्षणात् इत्युक्तास्ते तथा सुधा मृष्टान्नानि प्रचक्रिरे सुन्दरस्तु विचार्यान्नम् सर्वसिद्धम् इति स्वयम्। श्लोक 67-77। सर्वम् निर्वर्त्य कर्माणि शिवम् सम्यक् अपूजयत् अभिषेकादिभिः सर्वै उपचारै उपाचरत् शिवपूजाम् समाप्याथ सुदान् आह्य सस्वकान् ब्राह्मणा दम्पती क्वचित् ईश्वरादिव तेजसा बुभुक्षितौ वृषम् स्नातौ बिल्वारण्येन तिष्ठतः तौ आनयत यूयम् वै भोक्तुम् शीघ्रम् पिपासितौ इत्युक्त्वा प्राहिणोद्भट्या सुन्दरः तद् अनुज्ञया ते च त्वरितम् अभ्येत्य बिल्वारण्यम् विलोकयन् तौ ब्राह्मणौ तु न पश्यन् विचिन्वन्तश्च सर्वतः सुन्दरम् शिवभक्तेन्द्रम् नत्वा ते प्रोचुरञ्जसा सर्वत्रापि विचिन्वद्भिः नैवास्माभिः निरीक्षितौ क्व गतौ तौ न जानीमः प्रमाणम् तत्र वै भवान् इत्युक्तः सुन्दरः किञ्चित् सम्भ्रमेण समन्वितः किम् एतत् इति सञ्चित्य ब्रूते स्म स्वयमेव सतत् तौ तावत् क्षुत्पिपासाभ्याम् परितावभ्य लोक्ययम् क्व गच्छेत्ताम् तथा श्रान्तौ दम्पती सयितौ क्व वा इति ब्रुवन् समुत्थाय ससङ्गो बिल्वकाननम् विचिन्वन् स्वयमेवाथ मूले बिल्वमहातरु विशाले सुन्दरो जिग्रत् भक्ष्याणाम् गन्धमुत्तमम् अन्नादीनाम् च लीपांश्च फलकांश्च समम् ततः दृष्ट्वा च ते सर्वे विस्मयम् जग्मुः रञ्जसा एतस्मिन् अन्तरे सुधा सुन्दरान्तिकम् आययुः। श्लोक 78। रसवत्याम् किञ्चिदपि पक्वे सन्नादिकेषु वा न दृश्यते कुतो ब्रह्मन् सर्वतोऽपि न दृश्यते विज्ञापयितुम् एतत् त्वाम् आगतास्म त्वरान्विता इति तेषाम् वचनम् श्रुत्वा दैन्याद्भूतान्विताः सुन्दरसाध्वसम्प्राप्य चालयन् सर्वतोक्षिणी ब्राह्मणाय प्रतिश्रुत्य दास्यामिति तथोर्थितम् न दद्याद्यदि मोहेन ब्रह्महास भवेद्ध्रुवम् क्षिदितौ तौ समुद्वीक्ष्य प्रतिज्ञातम् मयाधुना भोजयिष्यामि वामन्न इति ताव आगतौ यदि किं करिष्यामि वा तर्हि इत्येवम् ब्रुवति सुन्दरे पुरतस्य सन्तृप्तौ ददृशास्ते क्षणेन तौ ते सर्वे चाप्य भुक्त्वापि तृप्ता एव अभवम् सदा इदम् चापि तदाश्चर्यम् सर्वेषाम् समभूत्तदा सुन्दरौ समुद्वीक्ष्य समुपेतम् युवामिह इत्युक्त्वा सुन्दरः तच्च चित्रम् वीक्ष्य व्यचिन्तयत् मयाद्य शिवपूजायाम् यद्यत् अन्नम् निवेदितम् अदृश्यम् तदभूत् सर्वम् दृश्यम् केवल भाजनम् अत्र बिल्वतरो मूले पत्राणि कुसुमान्यपि दृश्यन्ते तानि पूजायाम् यैर्मया त्वर्चितः शिव उत्तरोत्तरमाश्चर्यम् किमेतत् इति सुन्दरे चित्रार्पितये दृष्ट्वा तौ पुनस्तरुणे स्थिते आकाशवाणी समभूत् सुन्दरम् प्रतिशाङ्करि शृणु सुन्दर मन्दार कान्तारम् मामकम् प्रियम् मम क्षेत्रेषु सर्वेषु मोक्षदम् चोत्तमोत्तमम् अगत्वा त्वम् आगात्वा माम् कथम् कुत्र यासि इति वयःसयिन्वाच आकर्ण्याचष्ट सुन्दरः स्तुत्वा बहुविधे स्तोत्रै शिवम् भक्त्यातिसुन्दरम् कालीश्वर दया सिन्धु भक्तवात्सल्य तत्पर वृत्तानाम् दशकेन त्वाम् तौषम् हि महेश्वर साकान्तारस्तथा गन्तुम् कान्तारम् शक्नुवान् कथम् एतावद्वित्वहम् च श्रीसङ्गै इति विचिन्तये इत्युक्तवती तस्मिंस्तु पुनर्वागशरीरिणि अहम् वृषभम् आरुह्य वाहनम् यामि वैपुरः वृषभाङ्ग्रीकुरन्यस्तम् वर्त्मवीक्ष्यानुयाहि माम् ज्योतिर्वनागमायैव तव सुन्दरमामकम् एतावच्चेष्टितम् विद्धि तस्तिष्ठन्तु साम्प्रतम् मद्भक्तसङ्गसंयुक्त प्रतिष्ठस्व विलम्बितम् इत्युक्त्वा वीररामासौ सुन्दरस्तरयान्वितः सङ्गैः सह प्रसितोऽभूत् तदानीम् कालनायकः स्वर्णवल्ली समायुक्त आरुह्य वृषभम् पुरः ययो तस्मिन् गते राजन् विचित्रचरिते शिवे ततो वृषभविन्यस्त चतुखुरसलक्ष्मणा वर्त्मना सह सङ्गेन सुन्दरोऽपि प्रक्षेतराम् ससङ्गमनुष्यान्तम् महोक्षान्द्रिसफाकनम् दृष्ट्वा दृष्ट्वा प्रमादेन मध्ये कान्तारमीश्वरः विचित्रलीलः पदवी चिन्निभूता नडुपुरम्
वर्स् नम्बर् 101
लोपयामास संलीन शोधयिषु अस्य हृत् तथा सुन्दर सन्धिया सर्वतो मार्गमार्गणम् कुर्वन्ति स्म भ्रमन्तस्ते चतुर्णाम् च पदाम् पदम् वृषभस्य त्रयाणाम् वा द्वयोः एकस्य वा नते विजानतेन तेषाम् तु कश्चित् इहात्र दृश्यते खुरवत् वृषभस्येदम् ततो अन्यो वक्ति तत्खुरम् एतद् एवैति तद् इदम् इहैव इति अपरोभणत् धावित्वा पुरतोऽन्विष्य पदम् भद्रपदस्य च मृगयस्य पदम् पृष्ठे गवेशस्व च दक्षिणे वामपार्श्वे मार्गस्य न लभे खुरकुट्टनम् न प्रपद्यामहे पद्याम् कुतो वा वर्तनीयत्यपि पुरतः पार्श्वभागे वा वामे वा दक्षिणेऽपि वा यन्नागतम् वास्माकम् जागटीति हि नाटनम् दुश्चरा नो महीभागा शिला सकलकण्टकैः दुष्प्रवेशावनाभोगा कण्टकी द्रुमसङ्कटै इति अन्योनयम् ब्रुवन्तश्च श्वसन्तान्तश्च अथ सुन्दरम् कुर्वन्तो घोषमासाद्य కింకర్తవ్యమిత పరం ఇతీతేషు విహస్తేషు సమస్తేషు అపి సుందర కాళీశ్వరాలయాక్రోశ త్రయే నైరుత దక్షిణే అలబ్ధ్వా పదవీం స్తోత్రం చక్రే కాళీశ్వరం ప్రతి అహం తు శివ భక్తానాం సంగై మధ్యైవనం బ్రవన్ కిం కరోమిహ కాళీశ సమాధిస్త్వయై బహి ఇతి చింతయస్తస్య పురతో వృషవాహన యువేశ్వర ప్రాదురాస భక్తవాత్సల్య కురుత్ విభుః తం దృష్ట్వా వృషభారూఢం అసౌ సుందర శివం ఏతస్తుతి ప్రీతియుక్తో మోహయన్ వాక్యమబ్రవీత్ సుందరాగచ్చ మద్వాహ వృషపాద ఖురాం వినా అద్వనా అన్యేన వన్యేన ఇత్యాదిశ్య పదవీం హర.
వర్స్ నంబర్ 114 శ్లోక 115-128.
అంతర్దదే తతశ్చిత్రం వీక్ష్య తత్సూచితాద్వనా అర్ధక్రోశం జగామైవ సుందర సంగవానపి ఏవం ఆగచ్చీ తదా తస్మిన్ కాళీశ్వర పునః మార్గం విలోపయామాస తంచాపి పరమేశ్వర తతో మార్గ భ్రమే ప్రాప్య సర్వతశ్చ సుందర చింతాం జగామ మహతిం మార్గలిప్సుర్మహావనే ఇత్తం చింతా సంతత స్వాంతవృత్తే ప్రాదుర్భూతం కాళికా క్షేత్రమస్య అగ్రే అన్యం లింగకోటి ప్రపూర్ణం దృష్ట్వా పాదక్షేపణం మే కథం స్యాత్ ఇతి బుద్ధిం విధాయాథ సర్వతో లింగకోటివి నిబిడే వర్త్మని తత సుందరశ్చిత్రమాశ్రితః కాళీశ్వర విలాసాత్తు దదర్శే క పదం పునః సుందరో లింగరహితాం సర్వేషాం గమనక్షమాం.
శ్లోకం 121.
ఆలోకయన్ తతో జ్యోతి వనం ప్రతి తదధ్వనా నమన్ దృష్ట్వా స సంగోసౌ జగామ స కుతూహల సుందర శివ భక్తాశ్చ సర్వే సర్వత ఆదృత అగ్రత సముద్రగాగ్రం వివేశాలయ భూషణం గోపూరం బహుచిత్రాఢ్యం ప్రాకారం చ తథావిదం సహస్రం భ్రమ సముద్గ్రీవా పశ్యంతి స్వ నమంతి చ వివేశ్వర ప్రదత్తేన పథాతేన గతాస్వదా మందార పాదపా దివ్యాన్ సుగంధి కుసుమాయుతాన్.
వర్స్ 125.
దేవదారు తరుశ్చాపి చ్యూతోశ్చ ఫనసాం తథా అగరూన్ ఫలినశ్చాపి సర్వతో మధురాన్ ద్రుమాన్ నానావిధా నిత్యఫలా నిత్య పుష్పాన్ మనోహరాన్ క్వచిత్ కేదార పాళీశ్చ నిత్య సస్య మనోరమా క్వచిన్ మునినా కుటజాన్ పశ్యంతస్తాపసావృతాన్ కోకూయమానాన్ పరితః కోకిలాన్ కోకినస్తత సారసై చక్రవాకైశ్చ హంసైశ్చ సమలంకృత పద్మిని పద్మకల్హార నీలోత్పల విరాజిత. వైవర్త పురాణే సుందర చరితం 129 ఆన్వర్డ్స్. గీతం మధున్మత్త భృంగావళి నినాదిత వీక్ష్య వీక్ష్య తదా ప్రాపుర్ గజ పుష్కరణీ తటం కాళీశ్వరస్య సౌభాగ్య నయనానందవర్ధకం విలోక్య సస్తు సేత్ సర్వే శివ గంగా జలే తులే సుందరశ్చాపి తత్తీర్థే స్నాత్వా శ్రీ సంగ సంయుతః శుక్లాంబర దురో భస్మ రుద్రాక్షాభరణోజ్వల యువేశ్వరస్య సేవార్థం జగామశః భక్తిః యువేశ్వర తదా దివ్య చరితస్య స్వస్య మాయయ ఆలయం గోపురాదాఢే అంతర్జాయ పురోష్వతు తస్థానే తోయ సంపూర్ణం పద్మాకరం అదర్శయ తదా స సుందర తచ్చ తటాక వీక్ష విస్మితః పద్మాకర కిమేతన్మే ద్రశ్యతే బాలయోగతః కృపా సాధు సువేశస్య క్వ ప్రాసాదో యువేశస్య క్వ పాకార క్వ గోపురః ఇతి ధ్యాత్వా ముహూర్తం స అవశ్యేవం అచింతయత్. యాయతో మే శివక్షేత్రాన్ నిర్గత్య కమలాపురాత్ సర్వం వైచారతో నాసీత్ అత్రాగంతుం హి నోమలః. अनेनैवापराधेन लीनो भूतरुणेश्वरः इति निश्चित्य मनसा श्री संगे चापि पश्यति जगावाग क्षमार्थम् सवृतम् द्रविडभाषया प्रणतार्तिहरो देव कारुण्या तरुणेश्वरः मध्ये पद्माकरम् दिव्यम् अदृश्यम् चर्म चक्षुषाम् अदर्शय ज्योति एतत् दृश्यन्त दिव्य चक्षुषाम् ससन्तुष्ट मनाभूय प्रजगौ तर्हि शङ्करः कपर्दम् दर्शयामास स इव पुनरेव तम् मस्तकादि समायुक्तम् सर्वाभरणभूषितम् गङ्गाचन्द्रकलाचूर्णम् चतुर्विबाहुविमृगम् श्लोक 142 onwards वर्षुम् वरम् ईशानम् अभीतिम् दध्यतम् शिवम् स्वर्णवल्ली वामभागम् षोडशाब्दाकृतिम् हरम् सर्वालङ्कारसंयुक्तम् स्वात्मानम् तरुणेश्वर दर्शयामास तम् तत् वृत्तगानानुगुण्यतः शिवः तत्सम्प्रीतहृदय स्वालयम् तम् अदर्शयत् सौम्य ततः कालीश्वरम् दृष्ट्वा नत्वा स्तुत्वा परिक्रमन् सोमेशम् सुन्दराम् वाम् च मीनाक्षीम् सुन्दरेश्वरम् पुनः कालीश्वरम् नत्वा भक्त्या तिष्ठ स सन्निधौ युवेश्वर सुन्दराय ससङ्गाय दयानिधि अर्पयामास बहुशो धनमव्ययसुदुर्लभम् सोऽपि सुन्दर एवम् तम् भक्तार्तिहरमीश्वरम् भक्तकीर्तिकरम् सम्यक् नत्वा स्तुत्वा विनिर्ययौ आलयाश्रितनूपते ऐशान्याम् दिशि पावने तटे कौण्डिन्यसरितश्च उत्तरे शायिकामटे सुन्दरा नयनार्थम् तु यत्रा ताम् तरुणेश्वर तत्र अद्यापि विराजेते स्वर्णवल्ली युवेश्वरौ वृषभान्द्रिखुरन्यास लोपम् यत्र स्वयम् व्यघ स्वयम् विलीयश्च तथा सुन्दरम् चाप्यमोहयत् वर्ष नंबर 151 सर्वेषाम् जगतो मर्थो ज्योतिर्वनम् उपागत तद्यान्तर्दिमद्दित्य ख्याख्या शब्द्यते जनै यत्र कालीश्वरो देवो अदर्शय स्वालयम् सरः तदद्यापि हि गम्भीरम् युवेशालयमीक्ष्यते इति कालीश्वरस्येष महिमा वर्णितो मया अद्यद्भुततमा पुण्य पापहारी च शृण्वताम् पावने वसताम् पुण्य कारके शायिकामटे सान्निध्यम् कुर्वतो स्वर्ण वल्लिकालीशयो नरः चिन्तनम् कुरुते यस्तु पापेभ्यः स विमुच्यते इप्सितम् प्रदतम् एषः स्वर्णवल्ल्या सह प्रभु इदम् सुन्दरमाहात्म्यम् यः शृणोति पठत्यपि सर्वपापै विमुक्तः स शिवसायुज्यमाप्नुयात् इत्थम् शैव शिरोमणौ विरचिताम् श्रीसुन्दरे अत्यद्भुताम् लीलाम् पापनिवारिणीम् श्रुति कृताम् कालेश्वरेण आदरात् प्रोक्तम् ते यद्हि देववर्म नृपतेः श्रोतुम् करोति ईहयोः वाञ्छाम् चेतसि धन्य एष सपुमान् प्राप्नोति नित्याम् श्रियम् इति श्री ब्रह्मवैवर्ते महापुराणे उत्तरभागे दक्षिणकालीपुरमाहात्म्ये सुन्दरमूर्तिचरितवर्णनम् नाम 30th अध्यायः